आम्नायां बुधिमादरेण सुमनः संघाः समुद्यन् मनोमन्दानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां नित्यानन्दसुधा निरस्तर रमा सौभाग्यमातन्वते।